नमस्सर्वेभ्यः। अद्य शिक्षावर्गस्य पञ्चदशः पाठः, सेप्टेम्बर् मासस्य द्वाविंशः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। हल्सन्धीनाम् अध्ययनम् अस्माभिः कृतम्। दश हल्सन्धयः अस्मिन् स्तरे अस्माभिः अधीताः। तेषाम् एकवारं पुनरावर्तनं कृत्वा अग्रे गच्छामः। सो संक्षेपरूपेण हल्सन्धीनां ज्ञानं स्मरणं वा कथं भवति इति पश्यामः। गतवर्गे पूर्वसवर्णसन्धिं छत्वसन्धिं च अधीतवन्तः, कानिचन सुभाषितानि च दृष्टवन्तः। तत्र हल्सन्धिषु प्रथमः वर्गः भवति चर्त्वं जष्त्वम् अनुनासिकः। सामान्यनियमः वर्गीयव्यञ्जनात् वर्गस्य प्रथमवर्णे द्वितीयवर्णे वा परे वर्गस्य प्रथमः आदेशः भवति, सः चर्त्वसन्धिः। सो चर्त्वसन्धौ वर्गस्य प्रथमः वर्णः आदेशः भवति। वर्गीयव्यञ्जनेभ्यः वर्गस्य तृतीयवर्णे चतुर्थवर्णे वा परे वर्गस्य तृतीयः आदेशः भवति, सः सन्धिः जष्ट्वसन्धिः इति भवति। तथा वर्गस्य पञ्चमवर्णे परे वर्गस्य पञ्चमः आदेशः भवति, सः अनुनासिकसन्धिः। सो चर्त्व जष्ट्व अनुनासिक। सो वेनेवर वर्गीयव्यञ्जन is followed by the first two letters of the varga, you get the first letter as the adesha by chartva. If it is followed by the third or fourth of the varga, you get the third as adesha by jashtva. And if it is the fifth, you get the fifth letter of the corresponding varga by anunasika sandhi. Samanya niyamaha kadachit shakarasyapi jashtvam bhavati iti jnatavantaha. सो सामान्यतः अयं नियमः। सो चर्त्वेन वर्गस्य प्रथमः आदेशः भवति, जष्ट्वेन तृतीयः, अनुनासिकसन्धिना पञ्चमः। सो एते सामान्यसन्धयः सर्वत्र भवन्ति। अनेन सह विशिष्य सकारस्य अथवा तवर्गस्य चवर्गे परे षकारचवर्गौ आदेशौ भवतः, टवर्गे परे षकार टवर्गौ आदेशः। सो श्चुत्वं ष्टुत्वं। सो अत्र स्थानी तु सकारः अथवा तवर्गः एव भवति। तथैव तवर्गस्य लकारे परे लकारः आदेशः भवति, परसवर्णसन्धिः। सो नकारे परे अनुनासिकः लकारः, अन्यत्र केवललकारः आदेशः भवति, अयं परसवर्णसन्धिः। सो अत्र स्थानी भवति सकारः अथवा तवर्गः। सो श्चुत्वं ष्टुत्वं परसवर्णः भवति। अग्रे मकारस्य व्यञ्जने परे अनुस्वारः भवति, एषः अनुस्वारसन्धिः। सो मकारस्यैव भवति, व्यञ्जने परे मकारस्य स्थाने अनुस्वारः भवति। तस्य अनुस्वारस्य वर्गीयव्यञ्जने परे वर्गस्य पञ्चमः आदेशः भवति, त्वं करोषि त्वं करोषि इत्यादिषु वर्गस्य पञ्चमः आदेशः भवति। अथवा यकारवकारलकारेषु परेषु அனுநாசிகாக யவலாக பவந்தி அயம் பரசவர்ண சந்தி. ஸோ அனுஸ்வாரஸ்ய வர்க்கீய வியஞ்சனே பரே அதுவா யவலேஷு பரேஷு அனுநாசிக வர்ண ஆதேசக பவதி ஏஷக பரசவர்ண சந்தி. ஸோ அனுஸ்வார பரசவர்ண அனுஸ்வார சந்தி யத்ர பவதி தத்ர சாமான்யதஹ பரசவர்ண அபி பவதி. அனந்தரம் விசிஷ்ட சந்தயஹ சந்தி வர்க்கஸ்ய த்ருதீய வர்ணாத் ஹகாரே பரே ஹகாரஸ்ய ஸ்தானே வர்க்கஸ்ய சதுர்த்தஹ ஆதேசஹ பவதி தத் ஹிதம் தத்ஹிதம். ஸோ வர்க்கஸ்ய ஹகாரஸ்ய ஸ்தானே வர்க்க சதுர்த்தஹ பவதி அயம் பூர்வ சவர்ண சந்திஹ. ஷகாரஸ்ய வர்க்கஸ்ய பிரதம வர்ணாத் ஷகாரே பரே தரநந்தரம் ஸ்வரஹ அதவா ஹயவரல யமங்கணன ஏதே வர்ணாஹ சந்தி சேத் அம் இதி பிரத்யாஹாரஹ அஸ்தி சஹ பிரத்யாஹாரஹ அஸ்தி சேத் ஷகாரஸ்ய சகாரஹ பவதி சஹ சத்வ சந்தி. ஸோ ஹகாரஸ்ய வர்க்க சதுர்த்தஹ பூர்வ சவர்ண சந்தி ஷகாரஸ்ய சகாரஹ சத்வ சந்தி ததஹ நமுடாகம சந்தி அஸ்தி நகாரஹ நகாராத் பூர்வம் ஹஸ்வஸ்வரஹ பரம் ஸ்வரஹ அஸ்தி சேத் இதோபி ஏகஹ நகாரஹ ஆகமஹ பவதி அயம் நமுடாகம சந்தி. So this is the essence of the 10 vyanjana sandhi. அக்ரே அபியாசன் பசியாமஹ. ஸோ கத வர்க்கஸ்ய அபியாசே சர்வே ஹல் சந்தயஹ ஆசன் ஹே வக்தும் இச்சந்தி ஹஸ்தமுன்னயன். ராஜேஷ் நாயர்.
உத் பிளஸ் ஜீவனம் ஃபர்ஸ்ட் இட்ஸ் உத் பிளஸ் ஜீவனம் ஜஸ்த்வம் அக்ரே உஜ் பிளஸ் ஜீவனம் சுத்வம் உஜ்ஜீவனம்
உஜ்ஜீவனம் சம்யக். ஸோ உஜ்ஜீவனம் இது ரூபம் ஜஸ்த்வம் ததஹ சுத்வம். धन्यवादः स्वामिनाथन् महोदय.
एतत् स्वच्छत्रम् एतत् क्षत्रम् सन्धि उत्पष्टस्वसन्धि एतत् कृतं चेतत् क्षत्रं सेम् लैक् क्षत्रम्.
सो वाट् इस् द फस्ट् वन्
जस्ट् एतत् कृतं एतत्
that is Chartva. So, yeah. Jashtva is the third letter. So, first is Chartva.
Then it becomes Chartva. Right.
Correct. Samyak. So, Chartvena etat chatram tataha takarasya chakaraha bhavati etat chatram Chartvam shchutvam. Samyak. மகேஸ்வரி.
பிரதிபத் சந்திரஹ பிரதி அஹம் சிந்தயாமி சத்வம் பவதி அத்ர சத்வம் பிரதிபத் சந்திரஹ
சத்வம் வா
சத்வம் அஹம் சிந்தயாமி
சத்வம் ந தகாரஸ்ய ரூபம் பிரதிபத் சந்திரஹ सत्यं तकारस्य चकारः भवति.
तकारस्य चकारः भवति. एतत् सन्धिः चत्वं नास्ति,
श्चुत्वसन्धिः.
श्चुत्व, ओके, अस्तु.
छत्वसन्धौ महाप्राणः चकारः भवति.
अस्तु,
चकारः श्चुत्वसन्धिः प्रतिपच्चन्द्रः.
नमस्ते. स्यात् प्लस् टीका, तकारस्य स्थाने टकारः भवति. सो स्यात् टीका श्रुत्वसन्धिः.
श्रुत्वसन्धिः, सम्यक्. स्यात् टीका, तकारस्य टकारः भवति, श्रुत्वसन्धिः. लता शेखरन्.
नमस्ते भगिनि, केन् यू हियर् मी?
यस्.
प्लस् हलौ जष्ट्वम्, आदौ जष्ट्वम् उज् प्लस् हलौ.
अज् प्लस् हलौ.
ऐम् सारि, अज् प्लस् हलौ. अज् हलौ पूर्वसवर्णः उज्व. पूर्वसवर्णः, सो सो इट् विल् बि उज्ज्वलौ.
अच् हलौ. सो आदौ जष्ट्वं ततः पूर्वसवर्णः अज्झलौ इति. सम्यक्. सो अन्ये वेरि फ्यू पीपल् हेव् रेस्ड् देर् हेण्ड्स् टुडे. Sleepy time or Ramanujam Mahalaya.
Namaste. Tam plus cha. First anunas anuswara sandhi tam cha. Tarhi tan cha. अनुस्वारस्य स्थाने ञकारः भवति. पारसवर्णसन्धिः.
सम्यक्. सो तं च, सो आदौ अनुस्वारः भवति, अनन्तरम् अनुस्वारस्य परसवर्णे तञ्च इति रूपम्. उत्तमम्. अग्रिमम् सीता नारायणम्.
यद् मित्रं, यन् मित्रम् अनुनासिकसन्धि.
सम्यक्. यद् मित्रं, यन् मित्रं. सो एक्चुलि जष्ट्वं नापेक्षितम् अत्र. अनुनासिकसन्धिः, यु आल्रेडि हेव् दकार. सो यन् मित्रम् इति अनुनासिकसन्धिः. अग्रिमम् शारदा गोपालन्. सारि, यू हेव् टु अन्म्यूट् युवर् सेल्फ्.
बाला प्लस च तकारस्य स्थाने चकारः भवति, चुत्वसन्धि.
बालाश्च सकारस्य शकारः भवति, बालाश्च. सम्यक्. सत्यम्. एतत् मया एतत् प्रश्नपत्रे यत् प्लस् मित्रम् इति आसीत्. वस्तुतः यत् शब्दः दकारान्तः एव. यद् मित्रं, यन् मित्रम् इत्येव भवेत्. मया सः परिष्कारः कृतः, किन्तु फैल् अप्लोड् समये प्रायः पुरातनम् अप्लोड् कृतम्. So yad mitram, yan mitram. Atra ajhalav achityukte swaraha halityukte vyanjanani. Swaraha vyanjanani cha ityarthah. So atrapi ekaha prashnaha maya vastutaha tatra prathamvaram yada prashnaha likhitaha tada anyaha prashnaha asit saha prashnaha tasmin prashne sandhih nasit ataha ayam prashnaha parivartitaha. Anye kepi vaktum icchanti? Kimartham adya bahavah tushnim asate? Rao,
Shrideva. Srimat Shankaraha. Srimat Shankaraha is I think Chutva Sandhi.
There is Chutva and also Chatva. Srimat Shankaraha. So Takarasya Chakaraha Bhavati. Shakarasya Chakaraha Bhavati. So Srimat Shankara. So Agre. Nirmala Rajshekhar, you have to unmute yourself.
Namaste.
Ah.
Bhagavat Leela. Bhagavad Leela. Jashtva.
Anantaram.
Bhagavad Leela. And then Bhagavad Leela.
Kavargasya Lakare Pare. Tad Lati becomes Tali.
Bhagavat Leela.
So
para. It is Parasavarna Sali.
Yes. So Bhagavan Leela. So Bhagavat Leela Tatra Jashtvam Bhavati Tataha Parasavarna Bhavati Bhagavan Leela. Vijayashi.
Namaste. Gachan Uvacha. Gachan Uvacha. Namudagama Sandhi.
Samyak. Gachan Uvacha. Harasva Swaraha Asti Agre Swaraha Ataha Naka Agamaha Bhavati. Gachan Uvacha. Ityatra Namudagama. Anantaram. Anye kepi. Anybody else who didn't try so far? Raj Ajay.
Yes, Chanas plus Shat. Can you hear me?
Yes, yes. Tell me.
Sorry. Janas plus Shat is Janas Shat. Shtutva Sandhi.
Shtutva Sandhi. Samyak. Janas Shat Sakarasya Shakaraha Bhavati Shtutva Sandhi. Janas Shat. Okay. Etat Sandhi Yojanam Agre Sandhi Vichedaha. Vijayashri.
Kramadhi. Correct? Yeah. Kramadhi. Purva Savarna Sandhi.
Samyak. So Kramadhi. purvasavarna sandhi. So if you split it further, you can make it kramat hi. So jashtvam and purvasavarna.
Yeah, yeah, that's right. Yeah. Thank you.
Alright. Akre.
Shall I continue?
No, thank you. Sorry. Sita Narayana.
Tam lokam. Tam lokam. Parasavarna.
Correct. So, tam lokam. So, anuswaraha. ततः
परसवर्णः
अत्र तल्लोकं तत् प्लस् लोकम् इति छेदः न भवति यतोहि तथा अस्ति चेत् तल्लोकम् अनुनासिकः लकारः न भवति तत् प्लस् लोकं तद् लोकं तल्लोकम् इत्यस्ति चेत् तत् लोकम् इति छेदः अतः तल्लोकम् इति अनुनासिकः अस्ति अतः अनुस्वारस्य परसवर्णः तं लोकं तु मकारस्य अनुस्वारः अनुस्वारस्य परसवर्णः राव
सत् कल्पः कल्पः दट् इस् अनुस्वारसन्धि एण्ड् देन् फार्वर्ड् बै परसवर्णसन्धि
सम्यक् सो सम् प्लस् कल्पः सो सम् इत्यत्र आदौ अनुस्वारसन्धिः भवति अनन्तरं परसवर्णसन्धिः सङ्कल्पः राजेश नानि
जगन्नायकः जगद् प्लस् नायकः जगत् प्लस् नायकः अनुनासिक परे जष्ट्वम्
सम्यक् सो जगत् नायकः जष्ट्वं भवति अनुनासिकः अपि भवति जगन्नायकः उत्तमम् राजाचार्य
तल्लोहः तद् लोहः परसवर्णसन्धि फस्ट् एण्ड् देन् तत् लोहः जष्ट्वसन्धि
सम्यक् सो तत् बट् द वर्ड् इस् एक्चुलि तद् सो यु केन् रिटेन् इट् एस् तद् लोहः दकारान्तः शब्दः आल्सो रैट् इट् एस् तत् प्लस् लोहः एस् इन् एट् दिस् स्टेज् इट् इस् ओके both of them would be accepted but tat shabda is originally dakaranta so tad lohah talloha
okay thank you
nirmala you have to unmute yes
मत् नमस्ते मत् भक्तः मत् प्लस् भक्तः जष्ट्वम्
सम्यक् सो मत् प्लस् भक्तः मद्भक्तः जष्ट्वसन्धिः महेश्वरी
मन् मनाः मत् प्लस् मनाः किं सन्धि अहं चिन्तयामि अहं न जानामि किं सन्धेः नाम किं
मत् आसीत् इदानीं मन् अस्ति यत्र पञ्चमः वर्णः आदेशः भवति सः पञ्चमस्य वर्णस्य किं नाम वर्गस्य पञ्चम
अनुनासिकः
सम्यक् अनुनासिकसन्धिः
सन्ति
मनाः मन्मनाः. सो जष्ट्वं भवति अनन्तरम् अनुनासिकसन्धिः. सो तावद्वा वदति चेत् अलम्. सो यत्र पञ्चमः वर्णः आदेशः सः अनुनासिकसन्धिः, तृतीयः वर्णः आदेशः जष्ट्वसन्धिः, प्रथमः वर्णः चेत् चत्वसन्धिः. जानन् अपि नमुडागमसन्धिः.
तपश्चर्या, तपः प्लस् चर्या, तपस् प्लस् चर्या, विसर्गसकारः श्चुत्वम्.
सम्यक्. विसर्गसन्धिः न कृतः. तपश्चर्या हकारस्य षकारः, तपश्चर्या. सम्यक्. एनिबडि एल्स् वांट्स् टु टेल्? अन्ये केऽपि वक्तुमिच्छन्ति? यु डोण्ट् इवन् नीड् प्रिपरेशन्, यु जस्ट् सी द वर्ड् एण्ड् यु केन् टेल् रैट् हियर्. शारदा
लस् प्लस् तं नष्टम्.
सम्यक्. नश् प्लस् तं नष्टम् इत्यत्र श्रुत्वसन्धिः उत्तमम्. सो दिस् इस् अ सन्धि इन् बिट्वीन् अ वर्ल्ड्, अतः किञ्चित् कष्टमेव. नश् धातोः तप्रत्ययः. सो फस्ट् द शकार बिकम्स् श बै अ डिफ्रेण्ट् सूत्र, एण्ड् देन् तकारः क्तप्रत्ययः, गतः कृतः इत्यादिषु यः प्रत्ययः सः प्रत्ययः. सो तस्य तत्कारः भवति ष्टुत्वेन. अत्र
Is it etat plus two? No sandhi at all here?
What is the original word? Shabdah?
Etad. Etad plus two. So, jashtvam.
First letter is the adesha. Third, it was originally third. It is becoming first.
Etad.
एतद् तु. सो दकारस्य तकारः भवति चर्त्वम्. सो आल्वेज् द सन्धि नेम् डिपेण्ड्स् आन् द आदेश. सो वेर् द फस्ट् लेटर् इस् आदेश, इट् इस् चर्त्व. वेर् थर्ड् लेटर् इस् द आदेश, इट् इस् जष्ट्व. वेर् फिफ्त् लेटर् इस् द आदेश, इट् इस् अनुनासिक. सो सिन्स् हियर् यु रिप्लेसिङ्ग् थर्ड् वित् फस्ट् एतत् तु. सो अन्तिमरूपे प्रथमः वर्णः श्रूयते, अतः चत्वसन्ति.
तरित् शान्ता, तरित् प्लस् शान्ता चत्वसन्ति.
सम्यक्. सो सरित् प्लस् शान्ता चत्वं, तकारस्य तकारः, तकारस्य चकारः, अतः श्चुत्वं छत्वम् उभयम् अस्ति. सो सर्वे हल्सन्धयः अधीताः. तदा तदा किञ्चित् कन्फ्यूजन् भवति, कुत्र जष्ट्वं, कुत्र चर्त्वम् इत्यादि, किन्तु अभ्यासेन भवति. सो दट् इस् वै यु गो बेक् टु द table which we have. So vargasya prathamaha. So you have to look at the final form. So yojitam rupam yadasti tatra vargasya prathamaha varnaha asti chet sattva sandhihi, tritiyaha asti chet jashtra sandhihi, panchamaha asti chet anunasika sandhihi. All sandhis are based, I mean the names of sandhis are always based on adesha. So what is the final thing we are substituting? So tamashritya sandhehe nama. Sarichanta ityasya arthaha. Sarit ityasya nadi shanta, bahu shantaritya pravahati ityarthaha. A peaceful river. Sarichanta. So agre gachhamaha. Hal sandhayaha adhitaha. Swara sandhayaha athava ach sandhayaha purvameva jnataha. Adhuna sandhina tritiyaha prakaraha visarga sandhihi ityuchyate. So sandhishu trayaha prabhedaha santi. Swara sandhihi athava ach sandhihi, vyanjana sandhihi athava hal sandhihi, visarga sandhihi iti trayaha sandhayaha bhavanti. So visarga sandhihi nama kaha, yatra visargasya parivartanam bhavati, visargasya vikaraha bhavati, saha visarga sandhihi ityuchyate. Visarga sandhihi chaturdha bhavati. Uttvam athava ukara deshaha, visargasya sthane ukaraha bhavati, athava visargasya lopaha bhavati, visargasya repaha adeshaha bhavati, visargasya sakaraha adeshaha bhavati. Ete pancha, ete svaraha visarga sandhayaha. Anyaha api asti, jihvamuriyaha upadhmaniyaha iti, kintu asmin stare tasya adhyayanam nasti. So chatvaraha visarga sandhayaha adhiyate. Uttvam lopaha repaha sakaraha. Adya visargasya uttvam ukaradeshaha kutra bhavati iti pashyamaha. Niyamaha saralaha. Aha nama hrasva akarat param visargaha. Hrasva akaraha paranantaram visargaha. Aha iti bhavati. Tasmat akare mridu vyanjane va pare tasya visargasya sthane u iti adeshaha bhavati. So mridu vyanjanam iti padam jnatam syat. So prasangavashat atra varnanam vishaye kinchid vaktum icchami. So kenachit prushtam asit. So prasange sati vadami iti mayapi uktam. Idanim prasangaha asti ityataha darshayami. Tatra varnaha samskrita bhashayam kati varnaha iti prashnaha. Tatra bahushu stareshu uttarani bhavanti. Samanyataha ai iti likhamaha chet tatra panchashat bhavanti. Kintu samanyataha trishashtihi athava chatushashtihi ityuchyate. So the plus one is the lakara, la, which is found only in the Veda. Okay. So vaidika varnan api sanyojya chatushashtihi varnaha iti uchyante. Katham bhavanti iti pashyamaha. Tatra chatur vidhaha varnaha bhavanti. Svaraha ayogavahaha vyanjanani yamaha. Tatra yamanam vishaye tyajamaha yama varnaha vedeshu eva bhavanti. So vedeshu eva tesham prayogaha. Ataha tat laukika bhashayam ete chatvaraha varnaha na bhavanti. Swaraha swayam rajante iti swaraha. So yesham varnanam vatantriyena uchcharanam sambhavati. So those which can be pronounced independently are called swaraha. Svareshu hrasvaha dirghaha plutaha iti prabhedaha asti. So atra ekaha shlokaha uchyate. Ekamatro bhaved hrasvaha. Bhaved hrasvaha. So atra purva savarna santhihi. Bhaved hrasvaha. So a iti ekamatra. Ekamatra kale यः वर्णः उच्चार्यते सः ह्रस्वः द्विमात्रो दीर्घ उच्यते मात्राद्वयं यस्य भवति सः दीर्घः त्रिमात्रस्तु प्लुतो ज्ञेयः मात्रात्रयं कदाचित् तदधिकं भवति चेत् प्लुतः इति उच्यते सो ह्रस्वः दीर्घः प्लुतः अ इ उ ऋ लि एते पञ्च ह्रस्वस्वराः आ इ ऊ ऋ ए ऐ ओ औ इति अष्ट दीर्घाः लकारस्य दीर्घः प्रयोगे नास्ति अतः लु इति नास्ति सो आ इ ऊ ऋ ए ऐ ओ औ एतेषां ह्रस्वः अपि संस्कृतभाषायां नास्ति प्रादेशिकभाषासु ए ए ओ ओ इति भवति संस्कृतभाषायां नास्ति केवलं दीर्घः एव अस्ति प्लुतः सर्वेषां स्वराणां भवति अतः नव प्लुताः सो आहत्य द्वाविंशतिः स्वराः अयोगवाहाः चत्वारः सो फोर् अयोगवाहाः एतेषां स्वातन्त्र्येण प्रयोगः नास्ति So, swaranam anantaram bhavanti. Okay, they always follow a swara. Anuswaraha nyayate. So, im, kasyapi swarasya anantaram anuswaraha bhavati. Evam visardaha. Ah, iti visardaha. Jihvamuliyaha. Yada visardasya anantaram kakaraha khakaraha va asti. तदा अर्ध विसर्गः इव वर्णः भवति अन्तःकरणम् अह् इति अर्ध विसर्गः यः अस्ति तस्य जिह्वामूलीयः इति नाम अन्तःकरणं कःखनति सो विसर्गादनन्तरं ककारः खकारः वा अस्ति चेत् जिह्वामूलीयः भवति एवं विसर्गादनन्तरं पकारः फकारः वा अस्ति चेत् उपध्मानीयः भवति तपः फलम् अन्तःपुरम् अह् इति यः वर्णः सः उपध्मानीयः इति उच्यते एवम् अनुस्वारः विसर्गः जिह्वामूलीयः उपध्मानीयः इति चत्वारः अयोगवाहाः अनन्तरं व्यञ्जनानि अन्वग् भवति इति व्यञ्जनम् स्वरम् अनुसृत्य यः वर्णः भवति सः व्यञ्जनम् इति उच्यते तत्र त्रयस्त्रिंशत् अथवा चतुस्त्रिंशत् व्यञ्जनानि सो व्यञ्जनेषु वर्गीयव्यञ्जनानि सन्ति कवर्गः चवर्गः टवर्गः तवर्गः पवर्गः इति अवर्गीयव्यञ्जनानि अपि सन्ति यर लव शोषसः ळ ळ इति वेदेषु उपयोगः भवति अग्निमीळे पुरोहितम् इति लौकिक भाषायां नास्ति अत एव प्लस् वन् इति उच्यते सो वर्गीय अवर्गीय इति व्यञ्जनानां प्रथमः प्रभेदः द्वितीयः प्रभेदः मृदु कर्कश मृदुव्यञ्जनानि कर्कशव्यञ्जनानि सो वर्गाणां तृतीय चतुर्थ पञ्चमाः यरलवः एतानि मृदुव्यञ्जनानि सो वर्गस् प्रतिवर्गं तृतीयः चतुर्थः पञ्चमः गघङ झझञ डढण दधन बभम एते यरलवः एते च मृदुव्यञ्जनानि वर्गाणां प्रथमद्वितीयौ कख चछ तठ तथ तथा श श स एते कर्कश व्यञ्जनानि. ओके, सो सः द्वितीयः प्रभेदः. वर्गीय अवर्गीय इति प्रथमः, मृदु कर्कश इति द्वितीयः, अल्पप्राणः महाप्राणः इति तृतीयः. सो वर्गाणां प्रथम तृतीय पञ्चमः य र ल व एते अल्पप्राणाः. क ग ङ च ज ञ ट ड ण त द न प ब म एते अल्पप्राणाः. वर्गाणां द्वितीय चतुर्थौ श श सः एते महाप्राणाः. सो ख घ छ झ ठ ढ थ ध फ भ श श सः एते महाप्राणाः. एवं व्यञ्जनेषु त्रिविधः विभागः अस्ति, वर्गीय अवर्गीय, मृदु कर्कश, अल्पप्राण महाप्राण. सो आहत्य चतुष्षष्टिः, 64 वर्णाः. तत्र चत्वारः यमाः लकारश्च वेदेषु एव श्रूयते. अतः लौकिकसंस्कृते 59 ऊनषष्टिः वर्णाः, वैदिकभाषाम् आश्रित्य चतुष्षष्टिः वर्णाः इति उच्यन्ते. तत्र प्लुतवर्णः कुत्र भवति इति प्रश्नः. तत्र सूत्राणि सन्ति. सामान्यतः दूरात् सम्बोधने प्लुतवर्णः भवति, यथा इतः रामा इति आह्वयते, तत्र मा इत्यस्माद् अकारस्य प्लुतः, अथवा हरे इत्यादि. यत्र दूरात् सम्बोधनं भवति तत्र प्लुतः भवति, अन्यत्रापि प्लुतः उच्यते, तत्र विशिष्य सूत्राणि सन्ति. सो मृदु कर्कश भेदः अपेक्ष्यते, हल्सन्धिषु अपि अपेक्ष्यते, विसर्गसन्धिषु अपि अपेक्ष्यते, अतः उक्तं. विल् कम् बेक् टु दिस्. सो अह ह्रस्व अकारात् परस्य विसर्गस्य, अकारे ह्रस्व अकारे मृदु व्यञ्जने वा परे विसर्गस्य उ इति आदेशः भवति. तत्र यथा अह प्लस् अ ह्रस्वाकारः, विसर्गः अस्ति, पूर्वमपि ह्रस्वाकारः, परतः अपि ह्रस्व अकारः. उदाहरणं पश्यामः. रामः प्लस् अपि इत्यस्ति. सो रामः इत्यत्र अकारः अह अस्ति, ह्रस्व अकारोत्तरं विसर्गः, अपि इत्यत्र अकारः. सो तत्र किं भवति? अ उ अ. सो अ विसर्गः अ आसीत्, विसर्गस्य स्थाने उकारः भवति, अयमेव विसर्गसन्धिः, विसर्गस्य उत्वम्. अ उ अ. अग्रे किं भवति? सो राम उ अपि. सो रामः अपि, राम उ अपि. सो अग्रे किं भवति? अ प्लस् उ. सो अत्र अ अस्ति, उ अस्ति, अ प्लस् उ, ओ गुणसन्धिः भवति. अतः राम उ अपि इत्यत्र रामो अपि इति भवति. सो रामो अपि. अत्र पुनः किं भवति? ओ प्लस् अ. ओकारस्य पदान्ते ओकारस्य अकारे परे ओकारः भवति, अयं पूर्वरूपसन्धिः. स्वरसन्धिषु अधीतौ गुणसन्धिः पूर्वरूपसन्धिः. अतः रामो अपि, रामोऽपि इति भवति. सो विसर्गस्य उत्वं, गुणः पूर्वरूपं, सर्वं मिलित्वा रामः अपि, रामोऽपि इति भवति. एतत्तु अकारे परे, ह्रस्व अकारे परे. मृदुव्यञ्जने परे किं भवति? अह प्लस् मृदुव्यञ्जनं, यथा रामः गच्छति. ग इति मृदु व्यञ्जनम् अह अस्ति तत्रापि विसर्गस्य उकारः भवति सो अ उ राम उ गच्छति सो दिस् स्टेप् इस् एक्चुलि विसर्गसन्धि सो राम उ अपि राम उ गच्छति सो अत्रापि अ प्लस् उ ओ गुणसन्धिः भवति रामो गच्छति पूर्वरूपं न भवति पूर्वरूपसन्धिः ह्रस्व आकारे परे एव उच्यते अतः अत्र पूर्वरूपं नास्ति रामो गच्छति इत्येव रूपम् सो अह इत्यस्मात् ह्रस्व आकारे परे विसर्गस्य उत्वं भवति गुणः पूर्वरूपं सो यु गेट् रामोऽपि सो वृक्षः अस्ति वृक्षोऽस्ति इत्यादि मृदुव्यञ्जने परे उत्वं भवति गुणः भवति सो फैनली यु गेट् ओ रामो गच्छति कृष्णो वदति इत्यादि भवति अत्र एकः प्रश्नः अत्र रामोऽपि इति वैल् प्रनौन्सिङ्ग् दिस् ईस् अकार सैलेण्ट् अकारः नास्ति तत्र वस्तुतः पूर्वरूपसन्धौ ओकारस्य अकारे परे पूर्वपरयोः ओकारः आदेशः भवति सो एक्चुलि द लेटर्स् देर् आर् ओन्ली रा म ओ एण्ड् प तावदेव अस्ति अकारः नास्ति सो सैलेण्ट् वर्णः इति संस्कृते नास्ति अत्र अकारः नास्ति उच्चारणमपि न भवति रामोऽपि इत्येव रा ऋ आ म ओ प इ तावदेव अस्ति अयं चिह्नः अवग्रहचिह्नः इति उच्यते सः आधुनिकः वस्तुतः पूर्वकाले अवग्रहस्य उपयोगः नासीत् रामोऽपि इत्युक्ते एवमेव लिख्यते रा मो पि स एव शुद्धः अपि तत्र दोषः एव नास्ति रामोऽपि इत्येव तत्र वर्णाः सन्ति पुरातनताडपत्रेषु पश्यन्ति चेत् अवग्रहः न भवति अवग्रहः इदानीं प्रायः द्वित्रशतकेभ्यः उपयुज्यते ह्रस्वाकारः पूर्वम् आसीत् इति सूचयितुं तस्य उपयोगः भवति किन्तु तत्र अकारः नास्ति उच्चारणमपि न करणीयः रामोऽपि इत्येव एवं लेखने अपि दोषः नास्ति सामान्यतः अवग्रहः लिख्यते किन्तु यत्र यत्र अवग्रहः तत्र पूर्वरूपम् इत्यपि नास्ति तद् लेखनीयम् इत्यपि नास्ति अकारः तु नास्त्येव अकारस्य स्थाने ओकारः आदेशः कृतः सो रामोऽपि इत्येव उच्चारणम् ओकारः पकारः तावदेव अस्ति सन्धिः अवगतः अह ह्रस्वाकारात् परस्य विसर्गस्य ह्रस्व अकारे मृदुव्यञ्जने वा परे उकारः आदेशः भवति सो सिन्स् देर् इस् आल्वेस् ह्रस्व अकार गुणः अपि भवति यदि अग्रे ह्रस्व अकारः अस्ति तर्हि पूर्वरूपम् अपि भवति अभ्यासं कुर्मः ये वक्तुमिच्छन्ति कृपया हस्तम् उन्नयन्तु उमा
प्रथमं भूयो भूयः
सम्यक् भूयः भूयः भूय उयः भूयो भूयः सम्यक् अग्रिमम् उमा यू कैन कंटिन्यू टू ईच राजेश
पाठः प्लस भवति पाठो भवति तृतीय
पाठो भवति अग्रिमं
नमः प्लस नमः नमो नमः प्रथमं
प्रथमं सम्यक् धन्यवादः सो एतत् पश्यन्तु अत्र नमो नमः इत्येव बहुभिः नमोन् नमः इति अन्यः नकारस्य अन्यस्य नकारस्य योजनं क्रियते सः नास्ति नमो नमः इत्येव गायत्री
हलो
हा वदतु
गजः गच्छति गजो गच्छति
सम्यक् विच वन्
This is third one.
Third or second?
Sorry, एक मिनट सेकेण्ड् वन् गजो गच्छति
गजो गच्छति द्वितीयं सम्यक्
रामः जयं जयति रामो जयति
सम्यक् रामो जयति ललिता सिंह You have to unmute.
Yes, can you hear me?
Yes.
Okay, thanks. Balaha plus hasati. It will be Balo hasati, fourth.
Samyak. Balo hasati.
Ramaha plus Raja. Fourth. Ramo Raja.
Uttamam. रामो राजा रामकृष्णराव
दीपो ज्वलति दीपः प्लस ज्वलति दीपो ज्वलति सेकेण्ड् वन्
सम्यक्
शिवः प्लस् वन्दः शिवो वन्दः फस्ट् वन् अल्ल 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 थर्ड् वन्
थर्ड् वन् शिवो वन्द्यः उत्तमं राजेश्वरी श्रीनिवास यू हेव् टु अन्म्यूट् युर् सेल्फ् Are you speaking? Na shruyate? Rajeshwari?
Vinodo Dadati.
Samyak. Vinodaha.
Yes.
Yes.
Vinodo. Vinoda. Vinoda Dadati.
Samyak. Next. Chedaha. Tatopi. Can you split it?
तद्यपि
ततोपि
ततो अपि तद्यपि
विसर्ग दिस् इस् अ विसर्ग सन्धि सो एक्चुअली द ऑप्शन
ततो अपि
ततः अपि ततोपि
सॉरी
नो प्रॉब्लम सो ततः अपि ततोपि Next, Sudha Shrikant.
Gajo Gratha, that is Gajaha plus Agratha, first one.
Samyak, Gajaha plus Agratha.
Vriddoham is Vriddha. प्लस् अहं सेकेण्ड् वन्
सम्यक् वृद्धः प्लस् अहं वृद्धोहम् नेक्स्ट वन अविनाशी
कह प्लस अत्र सेकंड वन को
रह प्लस अत्र को सम्यक
सो अग्रज स प्लस अग्रज द्वितीय वन
सह सह प्लस अग्रज सोग्रज सम्यक सुलोचना You have to unmute yourself.
Namaste.
Hmm.
So, Saha plus Abravid, first one.
Ah, Saha plus Abravid. Hmm.
Idopi Itaha plus Adi. Third one.
इतः प्लस अपि इतोपि सम्यक् रामनाथ
कः प्लस अर्थः फोर्थ
सम्यक् कः प्लस अर्थः
सः प्लस अहं सोहं थर्ड
सः प्लस अहं सोहं सम्यक् धन्यवादः स्वामिनाथन् महोदय यस्
भवतः प्लस् अदृष्टं
भवतः अदृष्टं भवतो दृष्टं सम्यक् सर्वभूतेभ्यः तत्त्वा सर्वभूतेभ्यः दत्त्वा
सर्वभूतेभ्यो दत्त्वा
सम्यक् सर्वभूतेभ्यो दत्त्वा समं धन्यवादः अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः इन्दिरा देवी यु हैव टु अनम्यूट योरसेल्फ सर्वभूतेभ्यः न भयम् रामानुजन्
सर्वभूतेभ्यो न भयं तृतीय
सर्वभूतेभ्यो न भयं सम्यक् तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् श्लोक अभयं सर्वभूतेभ्यो दत्त्वा यः मुनिः चरते यः मुनिः सर्वभूतेभ्यः अभयं दत्त्वा चरते सो हि हु डस् नाट् कास् फियर् हि हु ग्राण्ट्स् फ्रीडम् फ्रम् फियर् टु आल् तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् सो हि हिम्सेल्फ् विल् नाट् हेव् फियर् फ्रम् एनी बीयिङ्ग् सो इफ् हि डस् नाट् कास् इट् इस् वेरि सिमिलर् टु द भगवद्गीता यस्मान् नोद्विजते लोकः लोकान् नोद्विजते जयः सो हियर् इट् सेस् इफ् यु डोण्ट् कास् फियर् टु एनी बीयिङ्ग् दट् पर्सन् विल् आल्सो नाट् हेव् फियर् फ्रम् एनी बीयिङ्ग् नेक्स्ट् वन् इन्दिरा देवी यू हैव टु अन्म्यूट योरसेल्फ have to click on the microphone button to unmute yourself. There should be a microphone button next to your in your question. Nashruyate.
Nirvano vadyate. Pratama.
Samit. Nirvano vadyate. Next one. Vyagraha nirvyagram. Nashruyate. I think you muted yourself again.
Vyagrani, Vyagram Vanam Rachet. Vyagro? Vyagraha Vanam.
No, Vyagraha Nirvyagram.
Vyagro Nirvyagram, Tritiya.
Vyagro Nirvyagram, Vyagro Vanam.
Vanam.
Dhanyavadaha. So, Mahabharatasya Udyoga Parvanaha Shlokaha. Nirvano vadhyate vyagraha, nirvyagram chidyate vanam. Tasmat vyagro vanam rakshet, vanam vyagranja palayet. Nirvano vadhyate vyagraha, yadi vanam nasti, tarhi vyagraha sulabhataya hanyate. Etohi vanam eva vyagrasya rakshanam. Tathaiva nirvyagram chidyate vanam. Vyagraha nasti chet, vanam api sulabhataya chidyate. Ataha vanam vyagraha cha parasparasya sahayakau. Ataha tasmad vyagraha vanam rakshet. So vyagrena vanasya rakshanam karaniyam. Vanam cha vyagram palayet. Vanena vyagrasya rakshanam karaniyam. Iti Mahabharatasya shloka. Okay. So visargasandhihi tatra utvam ज्ञातम् इति भावयामि ह्रस्व अकारात् परस्य विसर्गस्य अकारे मृदु व्यञ्जने वापरे उत्वं भवति सो अग्रे सुभाषितानि ये वक्तुम् इच्छन्ति हस्तम् उन्नयन्तु शास्त्राण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषस्य विद्वान् सुचिन्तितं च औषधमातुराणां ननाममात्रेण करोत्यरोगम् इति सुभाषितम् विजयश्री
फस्ट् पदविभागः शास्त्राणि अधीत्य अपि भवन्ति मूर्खाः यः तु क्रियावान् पुरुषः सः विद्वान् सुचिन्तितं च औषधम् आतुराणां न नाममात्रेण करोति अरोगम् सन्धि शास्त्राणि अधीत्य एण्ड् सन्धि शास्त्राणि अधीत्य अधीत्य अपि सवर्णदीर्घसन्धि अधीत्यापि यः तु विसर्गसन्धि सकारम् अभवत् सः विद्वान् दिस् इस् विसर्गसन्धि अगेन् लोपः सुचिन्तितं च अनुस्वारसन्धि च औषधं चौषधं वृद्धिसन्धि आतुराणां न अनुस्वारसन्धि करोति अरोगम् एण्ड् सन्धि अगेन् सामान्यार्थः केवलं शास्त्रस्य अध्ययनेन प्रयोजनं न भवति यः मनुष्यः किं करणीयः इति जानाति तदेव करोति च सः एव विद्वान् ये जनाः अध्ययनस्य ज्ञानस्य उपयोगं न कुर्वन्ति ते मूर्खाः भवन्ति यथा कस्यचन रोगं केवलम् औषधस्य नामं जानेन न दूरी भविष्यति परन्तु तस्य सेवनस्य एव आरोगं भवति
सम्यक्
वाक्यविश्लेषणं भवन्ति करोति क्रियापदद्वयं प्रथमाविभक्ति शास्त्राणि मूर्खाः यः क्रियावान् पुरुषः सः विद्वान् औषधम् द्वितीयविभक्तिः सुचिति सारी
शास्त्राणि इति द्वितीया विभक्तिः शास्त्राणि अधीत्य व्याकरणम्
ओके थैंक यू या सुचिन्तितम् अरोगम् द्वितीया विभक्ति अगेन्
अरोगम् इस् द्वितीया विभक्ति सुचिन्तितम् इस् एन् अड्जेक्टिव् टु औषधम् सो सुचिन्तितम् औषधम् अरोगम् न करोति सो सुचिन्तितम् इति प्रथम शास्त्राणि अरोगम् इति द्वितीया
ओके थैंक यू देन् नाममात्रेण तृतीया विभक्ति
सम्यक्
आतुराणां षष्ठी विभक्ति अदित्य ल्यबन्त अव्ययम् अपि तु च न आल् अव्ययानि अन्वयरचना टेकन् भवति अजहारं कः भवति सः पुरुषः दिस् इस् आल्सो किं भवति विद्वान् भवति कीदृशः पुरुषः विद्वान् भवति क्रियावान् यः व्यवहारेण ज्ञानस्य उपयोगं करोति सः क्रियावान् भवन्ति अगेन् अनदर् क्रियापदं के भवन्ति जनाः पुरुषाः दट् इस् अज्जहारम् कथं भवन्ति मूर्खाः भवन्ति किं कृत्वा अपि मूर्खाः भवन्ति शास्त्राणि अधीत्य अपि मूर्खाः भवन्ति यदा अनदर् क्रियापदं न करोति किं न करोति अरोगं न करोति रोगस्य दूरी न करोति कस्याम् अरोगं न करोति आतुराणां रोगं केषां सारि या देट्स् केषां या केषाम् अरोगं न करोति आतुराणां केन अरोगं न करोति नाममात्रेण अरोगं न करोति हियर् ऐ एम् नाट् श्योर् बट् कं नाम मात्रेण केन यूस् दट् औष कः
और् किम् एक्चुलि ऐ मीन् द क्वेश्चन् शुड् बि किं बट् टु मेक् इट् clear that the question is about the karta, you can say kaha na karoti, aushadham na karoti. Ito hai aushadham kartrupadam.
So, okay, thank you. Kaha nama matrena arogam na karoti, aushadham. Kidrushyam aushadham, suchintitam aushadham.
Samyak.
Is it okay? I've been trying a lot.
No, it's correct, perfect. No,
okay. Then anvayam. यः पुरुषः क्रियावान् सः विद्वान् ऐ हेव् ए डौट् वाट् अध्यहारं वि टेक् केन् वि पुट् इट् इन् ब्राकेट्स् वैल् डूयिङ्ग् अन्वयम् ओके थेङ्क् यु यः पुरुषः क्रियावान् सः विद्वान् इन् ब्राकेट्स् भवति शास्त्राणि अधीत्य अपि I put in brackets janaha murkhaah bhavanti then yadha brackets suchintitam aushadham nama matrena aaturanam arogam na karoti anvayam next tatparyam yah manushah shastrani patati eva parantu vyavaharena अथवा जीवनेन जन ज्ञानस्य उपयोगं न करोति तथा अध्ययनेन कोऽपि प्रयोजनं नास्ति किमपि प्रयोजनं नास्ति यत् अध्ययनं करोति तस्य ज्ञानस्य उपयोगं जीवने भवेत् इति विद्वतः चिह्नः यदा केवलम् औषधस्य नामं ज्ञात्वा रोगस्य दूरीकरणं न भविष्यति. तस्य सेवनसेव रोगं भविष्यति. Is it okay?
Correct. तथा सम्यक्
व्याकरणांशाः भवन्ति. भूधातुः लट्लकारः परस्मैपदी प्रथमविभक्ति बहुवचनं. करोति तृधातुः एक्चुअलि उभयपदी बट् हियर् इट् इस् परस्मैपदी. लट्लकारः प्रथमाविभक्ति एकवचनं.
पुरुषः एकवचनं.
सारि प्रथम या प्रथमपुरुषः एकवचनं. शास्त्राणि दिस् इस् शास्त्रं मकारान्तः
अकारान्तः शास्त्र
ओके शास्त्रः देन् इट् इस् पुल्लिङ्गः प्रथमाविभक्ति
मकारान्तः नपुंसकलिङ्गः लैक् फलं फले फलानि शास्त्राणि.
ओके ओके नपुंसकलिङ्गः ओके
नपुंसकलिङ्गः द्वितीया विभक्तिः बहुवचनं
या द्वितीया विभक्तिः बहुवचनं या अधीत्य ल्यबन्तम् अव्ययं देन् च अपि न तु आल्सो दे आर् अव्ययस्. मूर्खाः अकारान्तः पुंलिङ्गः प्रथमविभक्ति बहुवचनं. यः दकारान्तः पुंलिङ्गः यद् शब्दः प्रथमविभक्ति एकवचनं. पुरुषः अकारान्तः पुंलिङ्गः प्रथमविभक्ति एकवचनं. सः दकारान्तः तद् शब्दः पुंलिङ्गः प्रथमविभक्ति एकवचनं. देन् विद्वान् सकारान्तः पुंलिङ्गः विद्वत् शब्दः प्रथमाविभक्ति एकवचनं. औषधं
क्रियावान्
सारि
क्रियावान्
क्रियावान् या क्रियावान् दिस् ऐ वास् नाट् वेरि श्योर्
यावत् सकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ
ओके क्रियावत् ओके थेङ्क्यु. नाममात्रेण अकारान्तः पुंलिङ्गः तृतीयाविभक्ति एकवचनं. अरोगम्
नाममात्रंसकलिङ्गः
नपुंसकलिङ्गः is all guessing here. That's going to get anyway. Aro, yeah, suchintitam, that is visheshanam, anyway, you said. Aturanam, akarantaha pumlingaha, shashti vibhakti bahuvachanam.
Arogam?
Arogam, akarantaha pumlingaha, tritiya vibhakti ekavachanam?
Samyak.
Okay, thank you.
Uttamam. सम्यक् उक्तम्. अत्र केचन प्रश्नाः सन्ति. अध्याहारः नाम कः इति प्रथमः प्रश्नः. श्लोकेषु कानिचन पदानि साक्षात् श्लोके न भवन्ति, किन्तु तेषाम् अन्वयार्थम् आवश्यकाः भवन्ति. सो इम्प्लैड् श्लोकस्य पठनेन ज्ञायते कः इति. सो तादृशाः शब्दाः अन्वयकरणे स्वीक्रियन्ते अस्माभिः. सः अध्याहारः इत्युच्यते. यथा यः क्रियावान् सः पुरुषः विद्वान् इत्यस्ति. किन्तु क्रियापदं विना वाक्यं सम्पूर्णं न भवति. अतः यः क्रियावान् सः पुरुषः विद्वान् भवति इति भवति इति क्रियापदस्य अध्याहारः क्रियते. क्रियापदस्यैव अध्याहारः इति नास्ति. कर्तृपदस्य कर्मपदस्य यस्य कस्यापि अध्याहारः कर्तुं शक्यते प्रसङ्गमाश्रित्य. सो अध्याहार इस् प्योर्लि डिपेण्डेण्ट् आन् काण्टेक्स्ट्. सो तस्मिन् श्लोके यस्य पदस्य अध्याहारः कर्तव्यः सः क्रियते. यथा सत्यं ब्रूयात् प्रियं ब्रूयात् इत्यस्ति. कः सत्यं ब्रूयात्? हू हेस् टु टेल् द ट्रूत् इति श्लोके नास्ति. सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियं प्रियं च अनृतं न ब्रूयात्. सो सर्वत्र कर्मपदमस्ति क्रियापदमस्ति. कः न ब्रूयात्? कोऽपि जनः. सो एनी पर्सन् शुड् नाट् से. सो दट् इस् इम्प्लैड्. सो तस्य अध्याहारः क्रियते. सो प्रसङ्गे यस्य पदस्य आवश्यकता अनुभूयते तस्य अध्याहारः क्रियते. तत्र सर्वं सम्यक् उक्तं. पदशः अर्थं पश्यामः. सो शास्त्राणि अधीत्य. सो शास्त्राणि बहुविध शास्त्रम् इत्यस्य पर्यायपदं नास्ति. ग्रन्थान् विविधशास्त्रग्रन्थानाम् अध्ययनं कृत्वा. सो तानि पठित्वा. सो शास्त्रग्रन्थान् पठित्वा अपि मूर्खाः बुद्धिहीनाः भवन्ति. यः क्रियावान् यस्तु यः पुरुषः अधीतं कार्यरूपेण करोति. सो अधीतम् आचरति. यत् ज्ञातं तद् वस्तुतः आचरति सः पुरुषः सः मनुष्यः विद्वान् पण्डितः इति उच्यते. सुचिन्तितम् औषधं सम्यक् निर्मितम् औषधं भेषजम्. सुचिन्तितं नाम पूर्वतनकाले यः कोऽपि वैद्यः औषधं ददाति आफ् द शेल्फ् इति न भवति. सः रोगिणं परीक्ष्य तस्य किम् औषधं सम्यक् भवति इति विचिन्त्य साक्षात् गत्वा तानि औषधानि आनीय औषधं निर्माय ददाति. अतः सुचिन्तितं वेल् थाट्. इदानीमपि वैद्यः प्रिस्क्रिप्शन् ददाति चेत् तेन विचिन्त्य दातव्यं. सो सम्यक् निर्णीतं सम्यक् निश्चितम् अस्य रोगस्य इदमेव औषधं भवति इति सम्यक् निश्चितम् औषधं भेषजम् अपि आतुराणाम्. अत्र आतुरः नाम रोगपीडितः इत्यर्थः. रोगी. सो रोगिणां रोगपीडितानां नाममात्रेण औषधस्य नाम ज्ञानमात्रेण. सो अस्तु अहम् एतद् औषधं स्वीकरोमि चेत् रोगः गच्छति इति औषधस्य नाम्ना एव अरोगं रोगस्य अपनयनं रोगस्य दूरीकरणं न करोति न विदधाति. सो औषधं कदा कार्यं करोति? कदा मनुष्यस्य रोगम् अपनयति? यदा सेव्यते तदा रोगम् अपहरति, न तु तस्य श्रवणमात्रेण रोगस्य दूरीकरणं भवति इत्यर्थः. ओके. सो अन्यः कोऽपि प्रश्नः अस्ति वा? एनिथिङ्ग् एल्स् यु वाण्टेड्? अग्रिमं श्लोकं पश्यामः. सो अयं श्लोकः. शास्त्राण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषस्य विद्वान् सुचिन्तितञ्च औषधमातुराणां न नाममात्रेण करोत्यरोगम्. अग्रिमश्लोकः. आयत्यां गुणदोषज्ञः तदा त्वे क्षिप्रनिश्चयः अतीते कार्यशेषज्ञः विपदानाभिभूयते. एनिबडी वांट्स टू ट्राई? निर्मला.
नमस्ते. नमस्ते भगिनी. ऐ विल् ट्रै. This is the first time I'm trying, so I'll make an attempt. Padachedah and Sandhi. Ayatyam.
गुणदेशज्ञम् विसर्गसन्धि सारी गुणदेशज्ञ अयात्याम् इस् अनुस्वारसन्धि देन् गुणदोषज्ञः तदात्रे तदात्रे ऐ डोण्ट् नो वट् इस् द मीनिङ्ग् आफ् तदात्रे
at that time, that is when at present ityartha tada ityasya bhavah
tada
at time ha
kshipra kshiprane plus chayah visarga sandhi shiptu san
तत्र निहि इति उपसर्गः तत्र विसर्गसन्धिः श्चुत्वसन्धिः उभयमपि
विसर्ग एण्ड् देन् अतीते कार्यशेषज्ञः प्लस् विपदा विसर्गसन्धि कम्स् न प्लस् अभिभूयते इस् सवर्णदीर्घसन्धि वाक्यविश्लेषणं क्रिया इस् न अभिभूयते प्रथमा विभक्ति गुणदोषज्ञः क्षिप्रनिश्चयः एण्ड् कार्यशेषज्ञः द्वितीया विभक्ति विपदा
तृतीया विपदा इति तृतीया विभक्ति
तृतीया विभक्ति इस् विपदा षष्ठी विभक्ति इस् आयात्यां
सप्तमी आयत्यां तदात्रे
सप्तमी इस् इट् एण्ड् तदात्रे अतीते अव्ययानि
सो नो दट् इस् आल्सो सप्तमी आल् त्री आर् सप्तमी आयत्यां तदात्रे अतीते
अतीते अर्वाल् सप्तमी ओके देन् आकाङ्क्षक्रमेण अन्वयः इस् न अभिभूयते विच् मीन्स् न अनुभवति
न पराजितः इस् नाट् डिफीटेड् आर् कान्कर्ड् इत्यर्थः
नाट् कान्कर्ड् कः न अभिभूयते गुणदोषज्ञः यः यः मनुष्यः गुणदोषः प्रति जानीहि
जानाति
देन् कस्यां गुणदोषः एक्चुलि ऐ हव् सेड् आयात्यां थिङ्किङ्ग् दट् इट् इस् बट् एक्चुलि इट् शुड् बि कुत्र इस् इट्
No, 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 correct. Kasyam, Ayatyam, correct.
Ayatyam. Karyasya.
Ayatyam ityasya, bhavishyati ityasya. Ayati. So that
future.
Which come in the future. So Ayatyam, bhavishyat vishaye, guna dosha. So yaha gunan doshancha janati. Saha.
पुनः कः न अभिभूयते तदात्वे क्षिप्रनिश्चयः पुनः कः न अभिभूयते कार्यशेषज्ञः देन् कदा कार्यशेषः अतीते
कदा और् कुत्र और् कस्मिन् एनी आफ् द
वर्ड्स् अन्वयः आयात्यां गुणदेशज्ञः तदात्वे क्षिप्रनिश्चयः अतीते कार्यशेषज्ञः विपदा न अभिभूयते एण्ड्
तात्पर्यं आकाङ्क्षक्रम विपदा केन और् कया न अभिभूयते विपदा
विपदा Sorry, I missed that. तात्पर्यम् इस् भविष्यत्काले धर्म अधर्मस्य प्रति यः ज्ञायते यः मुख्यविषये झटिति निर्णयं करोति यः उच्च उच्चेश कार्यं प्रति ज्ञायते ते कष्टं न अनुभवति
सः कष्टं न अनुभवति
सः कष्टं न अनुभवति यः वस्तुतः करणीयम् उच्चेशं कार्यं प्रति ज्ञायते दट्स् वन् मोर् थिङ्ग् अदर् देन् व्याकरणांशः आयात्याम् इस् ईकारान्त स्त्रीलिङ्गः सप्तमी विभक्ति एकवचनं गुणदोषज्ञः अकारान्त पुलिङ्गः प्रथमा विभक्ति एकवचनं तदात्वे अकारान्तः नपुंसलिङ्गः अण्ड् प्रथम सप्तमी विभक्ति एकवचनं क्षिप्रनिश्चयः इस् अकारान्त पुलिङ्गः प्रथमा विभक्ति एकवचनं अतीते अकारान्त पुलिङ्गः सप्तमी विभक्ति एकवचनं कार्यशेषज्ञः अकारान्त पुलिङ्गः प्रथमा विभक्ति एकवचनं विपदा अकारान्त स्त्रीलिङ्गः प्रथमा विभक्ति एकवचनं
दकारान्तः स्त्रीलिङ्गः तृतीया विभक्तिः एकवचनं विपदः सो दकारान्त स्त्रीलिङ्गः तृतीया विभक्तिः एकवचनं
अव्ययम् अभिभूयते भूधातु अभि उपसर्ग कर्मणि प्रयोगः प्रथमा पुरुष एकवचनं
सम्यक् कर्मणि लट् लकारः प्रथमपुरुषः एकवचनं उत्तमं सम्यक् प्रयत्नः कृतः गुड् अटेम्प्ट् सम्यगेव उक्तम् तत्र पदपदार्थः केवलं मया उच्यते सो विपदा न अभिभूयते विपत् नाम कष्टम् आपत् सो कष्टैः आपद्भिः न पराजीयते पराभवं न प्राप्नोति सो ही इस् नाट् कान्कर्ड् बै डिफिकल्टि कष्टानि न अनुभवति इत्येव अर्थः कः विपदा नाभिभूयते गुणदोषज्ञः क्षिप्रनिश्चयः कार्यशेषज्ञः गुणदोषज्ञः सो यः उत्तमांशान् तस्य दोषान् गुणान् दोषान् च जानाति सो कुत्र गुणदोषज्ञः आयत्यां भविष्यत्काले सो भविष्यत्काले यानि कार्याणि कर्तव्यानि तेषां विषये सम्यक् विचार्य तत्र कः गुणः कः दोषः इति यः जानाति सः क्षिप्रनिश्चयः शीघ्रं निर्णयं करोति कुत्र तदात्वे वर्तमानकाले इदानीं किमपि कार्यं कर्तव्यं तदा तत्र गुणः कः दोषः कः इत्यादि बहुविधचिन्तायाः अवकाशः न भवति अतः तदात्वे वर्तमानकाले क्षिप्रनिश्चयः शीघ्रं निर्णयं यः करोति ही हू केन् टेक् क्विक् डिसिशन् अट् प्रेसेण्ट् सो फार् द फ्यूचर् यु डू अन् अनालिसिस् प्रोस् अण्ड् कान्स् बट् फार् द प्रेसेण्ट् क्विक् डिसिशन् अतीते कार्यशेषज्ञः सो शिष्टं कार्यं यः जानाति कुत्र अतीते भूतकाले पूर्वं कृतेषु कार्येषु यत् शिष्टं तत् यः जानाति अस्माभिः बहुधा एवं क्रियते कार्यं समाप्तप्रायं सो वि फर्गेट् और् वि मूव् आन् टु अदर् थिङ्ग्स् वितौट् फुल्लि कम्प्लीटिङ्ग् इट् ओके सो टैङ्ग् अप् द लूस् एण्ड्स् सो तत् यः जानाति सो अतीते भूतकाले यत् कृतं तत्र शिष्टं किम् इतोपि किं करणीयम् अस्ति इति यः जानाति तादृशः विपदा कष्टेन परा अथवा आपद्भिः पराभवं न प्राप्नोति इत्यर्थः क्षिप्रम् इत्यस्य शीघ्रम् इत्यर्थः सत्यं क्षिप्रं शीघ्रं वेगेन इत्यर्थः सो आयत्याम् आयती शब्दः इकारान्तः स्त्रीलिङ्गः सप्तमी एकवचनं तदा त्वम् अकारान्तः नपुंसकलिङ्गः सप्तमी एकवचनम् अतीते अतीतम् सो अकारान्तः नपुंसकलिङ्गः सप्तमी एकवचनम् विपदा विपद् इति दकारान्तः स्त्रीलिङ्गः तृतीय एकवचनम् अभिभूयते सो अभिभवति टु डिफीट् अभिभूयते टु बी डिफीटेड् सो कर्मणि लट्लकारः प्रथमपुरुषः एकवचनम् एनिथिङ्ग् एल्स् आयत्यां गुणदोषज्ञः तदात्वे क्षिप्रनिश्चयः अतीते कार्यशेषज्ञः विपदानाभिभूयते गृहकार्यार्थं श्लोकद्वयमस्ति यः प्रीणयेत् सुचरितैः पितरं सपुत्रः यद्भर्तुरेव हितमिच्छति तत्तलत्रं तन्मित्रमापदि सुखे च समस्त्रियं यत् एतत्त्रयं जगति पुण्यकृतो लभन्ते एतत्त्रयं जगति पुण्यकृतः लभन्ते सो ये जनाः पुण्यशालिनः ते एव प्राप्नुवन्ति किं प्राप्नुवन्ति उत्तमः पुत्रः उत्तमं कलत्रम् उत्तमं मित्रम् कीदृशः अपि पुत्रः उत्तमः सुचरितैः पितरं यः प्रीणयेत् he who pleases parents with good conduct so the most important thing is good conduct so here that your son is very good son and daughter so it's a general statement so that child so that is the thing which makes parents the happiest to hear that their child is good is doing well or whatever so yaha sucharitaihi pitaram preenaye sah putraha yat bhartuhu हितमेव इच्छति तत् कलत्रम् सो अ वैफ् अ गुड् वैफ् ही हू विशस् ओन्ली फार् द वेल्फेर् आफ् द हस्बेण्ड् आल्वेस् सो इट्स् आल्सो वैस् वर्सा सो द स्पौस् इस् समबडी हू इस् आल्वेस् लुकिङ्ग् फार् वेल्फेर् नाट् टु प्लीज् बट् हितं नाट् प्रियं रैट् हितम् इच्छति दट् विच् इस् गुड् फार् द स्पौस् तन्मित्रम् आपदि सुखे च देर् इस् अ टैपिङ्ग् एरर् आपदि सुखे च समक्रियं यत् सो दट् इस् अ फ्रेण्ड् हू इस् ईक्वल् इन् हेपिनेस् एस् इन् डिफिकल्टि आपदि सुखे च समक्रियं ही हू आक्ट्स् ईक्वलि वेन् यु आर् इन् ट्रबल् एस् वेन् यु आर् इन् हेपिनेस् सो एतत् त्रयम् आल् दीस् त्री जगति पुण्यकृतः लभन्ते ये पुण्यं कुर्वन्ति ते एव प्राप्नुवन्ति इति एकं सुभाषितम् एण्ड् अनदर् अगेन् फ्रम् द नीतिशतकं प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः प्रियं कृत्वा मौनं तदसि कथनं चाप्युपकृतेः अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः सताङ्केनोद्दिष्टं विषममतिधाराव्रतमिदम् सो सतां सज्जनानां सो फार् गुड् पीपल् असिधाराव्रतम् इट् इस् अस् इफ् दे हेव् टेकन् अप् अ व्रत आफ् वाकिङ्ग् आन् द एड्ज् आफ् अ स्वोर्ड् असिधाराव्रतम् इस् अ व्रत आफ् वाकिङ्ग् आन् द एड्ज् आफ् अ स्वोर्ड् इट् इस् वेरि डिफिकल्ट् सो केन उपदिष्टं हू थाट् this vrata to good people iti kavih prichhati ityukte sajjanaah etadrisham bahu kathinam vratam karyam vratam iva kurvanti kim tat pradanam prachannam so danam karaniyam prachannam guptataya so when you give not to have a nameplate or a board or announce it in newspapers prachannam so to give to donate prachannam secretly that is without advertising it everywhere griham upagate sambhrama vidhihi so if somebody visits the home atithayah agacchanti chet vastutah santoshah so not feeling ayo why have they come here so I have so much to do so griham upagate sambhrama vidhihi So real true happiness when somebody comes home. Priyankritva maunam. So this is similar. So you help or you do something good for somebody silently. So doing good silently. Sadasi kathananca upakrite hai. But if somebody helps you, you announce it in assembly. Okay. You do help to somebody, be silent. But upakrite hai sadasi kathanam. Praptasya sahayasya sarvesham purataha kathanam. Anutsekaha lakshmyam. Lakshmi hi dhanam. Yada bahu sampat prapyate. Tada anutsekaha. Ahankarasya abhavaha. Nirahankaritvam. Nirabhibhavasaraha parakathaha. Parakathaha. Talking about others. Nirabhibhava. Again there is a typo. Abhibhava is insulting. So nirabhibhavasaraha. So when you talk about others in their absence, you do not talk badly about them. So that is what usually happens. I mean, when you are talking about somebody who is not there, it is negative. So, not talking negatively about others. So, all this is Asidhara Vratam Satam Kena Uddishtam. Iti Niti Shataka Shlokaha. So, both shlokas are slightly longer shlokas. We will do that. So, there is some time because Saptaha Dvayam Vargaha Nasti. So, next class will be on 13th October. So 29th September and 6th October. So 2 weeks I will not be able to take the class. I am going out of town. So the next class will be on 13th October. Sahakripaya Shloka Dvayasya Prayatnam Kurvantu. Adya Halsandhinam Punaravartanam Kratam. Visarga Sandhau Ukara Deshaha Dhitaha. Subhashita Dvayam Api Drishtam. अत्र समापयामः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे स गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो धन्यवादः एनी क्वेश्चन यू कैन आस्क